इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याः भारतमण्डपम् इत्यत्र अष्टलक्ष्मी महोत्सवस्य उद्घाटनं करिष्यति। त्रिदिवसात्मके महोत्सवे पूर्वोत्तरस्य अष्टराज्यानां संस्कृतिः, जीवन्तं वस्त्रोद्योगं, शिल्पं, पर्यटन अवसराः, अद्वितीय उत्पादाः च प्रदर्शिताः भविष्यन्ति। अयमुत्सवः पूर्वोत्तरस्य अष्टराज्येषु अरुणाचलप्रदेशे, असमराज्ये, मणिपुरे, मेघालये, मिजोरमे, नागालैण्डराज्ये, सिक्किमे, त्रिपुरायां च सामूहिकरूपेण अष्टलक्ष्मी इति नाम्ना प्रसिद्धः अस्ति। भूटानस्य राजा जिग्मे खेसर नामगेल वाङ्चुकः, राज्ञी ज्योत्सुन पेमा वाङ्चुकः च ह्यः नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलितवन्तौ। समागमे श्रीमोदिना भूटानस्य प्रगतेः, क्षेत्रीयविकासस्य च जिग्मे खेसर नामगेल वाङ्चुक इत्यस्य दृष्टिः प्रशंसिता। अविश्वासप्रस्तावे पराजयानन्तरं फ्रांससर्वकारः निरस्तः सञ्जातः, येन यूरोक्षेत्रस्य द्वितीया बृहत्तमार्थव्यवस्था राजनीतिकसङ्कटापन्ना सञ्जाता। प्रधानमन्त्रिणः मिशेल वार्नियर्स इत्यस्य सर्वकारम् अपदस्थं कर्तुं वामपन्थी दक्षिणपन्थी दलयोः सांसदाः परस्परं सम्मिलिताः सन्ति। अनेन सह एव मिशेल वार्नियरः षड् दशकेषु संसदः अपदस्थभूतः प्रथमः प्रधानमन्त्री अभवत्। वामपन्थी दक्षिणपन्थी दलयोः एकत्रिंशदुत्तरत्रिशतं सांसदैः देशस्य निम्नसदने अविश्वासप्रस्तावस्य समर्थनं कृतम्, यः आवश्यकमतैः अपि अधिकमस्ति। भाजपेति दलस्य वरिष्ठनेता देवेन्द्र फडणवीसः गतसायं तृतीयवारं महाराष्ट्रस्य मुख्यमन्त्रित्वेन शपथग्रहणं स्वीकृतवान्। भाजपादलस्य नेतृत्वे महायुति गठबन्धनेन महाराष्ट्रस्य विधानसभानिर्वाचने 30+200 निर्वाचनासनानि विजितानि आसन्। भाजपादलेन सह शिवसेना, राष्ट्रवादी कांग्रेसदलं च महायुतौ सम्मिलिताः सन्ति। शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठकेन्द्रीयमन्त्रिणा, मुख्यमन्त्रिणः, अन्ये च गणमान्याः उपस्थिताः आसन्। भारतीय अंतरिक्ष अनुसंधान संघटनेन इसरो इत्यनेन गतसायं श्रीहरिकोटायाः सतीश धवन अंतरिक्ष केन्द्रे PSLV-C59 इति प्रक्षेपणयानस्य सफलतापूर्वकं प्रक्षेपणं कृतमस्ति। अनेन प्रक्षेपणयानेन श्रीहरिकोटायां स्पेस स्पोर्ट इत्यत्र प्रक्षेपणस्थलात् सायं 4:15 उड्डयनं समारभत। प्रक्षेपणस्य अनन्तरं इसरो इत्यनेन एक्स इति सार्वजनिकसन्देशपटले प्रोक्तं यत् PSLV-C59 इत्यनेन सफलतापूर्वकं आकाशे प्रयाणं कृतमस्ति, येन इसरो इत्यस्य तान्त्रिक्या विशेषज्ञतया सह यूरोपीय अन्तरिक्षसङ्घटनस्य प्रोबा-3 उपग्रहाणां स्थापनाय न्यू स्पेस इंडिया लिमिटेड इत्यस्य नेतृत्वे एकस्य वैश्विकाभियानस्य समारंभम् अभवत्। पुरुषाणां क्रिकेट क्रीडायां भारत ऑस्ट्रेलिया दलयोः मध्ये बॉर्डर गावस्कर ट्रॉफीति क्रीडायाः द्वितीया निकष स्पर्धा अद्य प्रातः एडिलेड ओवल इत्यत्र आरभ्यते। भारतीय मानक समयानुसारि प्रातः 9:30 क्रीडायाः आरम्भः निर्धारितः अस्ति। इति वार्ताः।